इदम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका रिंकू जोशी। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य षष्ठ सप्त चरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते। निर्वाचनायोगेन जेपी नड्डा मल्लिकार्जुन खड़गे इति एताभ्याम् निर्देशः प्रदत्तः यत् तौ दलस्य प्रमुख प्रचारकेभ्यः एकां संचेतनां प्रकाशयेत् यत् ते एतादृशं वक्तव्यं न दद्युः येन आदर्श आचार संहितायाः उल्लंघनं स्यात्। भारतीय ऋतु विज्ञान विभागेन भारतस्य उत्तर भूतल क्षेत्रेष् मध्यभारते च तापतरंगानां कारणेन पञ्चविंशति दिनांकं यावत् रेड अलर्ट इति संचेतना प्रसारिता। अपि च आईपीएल क्रिकेट प्रतिस्पर्धायाम् अद्य सायं रॉयल चैलेंजर्स बेंगलुरू दलं राजस्थान रॉयल्स दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य षष्ट सप्त चरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते। उत्तर प्रदेशे विभिन्न दलानां प्रचारकाः प्रचाराभियानान्तरे रताः सन्ति। प्रधानमन्त्री नरेन्द्र मोदी अद्य उत्तर प्रदेशस्य बस्ती जनपदे एकं राजनीतिक सभां सम्बोधयत्। प्रधानमन्त्री प्रोक्तवान् यत् भाजपा दलेन पञ्च निर्वाचन चरणेष् एव बहुमतं समर्जितम्। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः जौनपुर बस्ती जनपदयोः प्रचारं कृतवान्। सः सुल्तानपुर सिद्धार्थनगर बलरामपुर जनपदेषु अपि जनसभाः सम्बोधयिष्यति। लोकसभा निर्वाचनस्य सप्तमे चरणे अष्ट राज्याणां केन्द्रशासित प्रदेशानां च चतुरधिक नवशतं प्रत्याशिनः निर्वाचन द्वन्द्वे भागं भजिष्यन्ति। निर्वाचनायोगः प्रोक्तवान् यत् सप्तपञ्चाशत् लोकसभा निर्वाचनासनेषु पञ्चोत्तर एकशताधिकै द्विसहस्रं प्रत्याशिनः नामांकनं कृतवन्तः। अन्वीक्षणानन्तरं चतुरधिक नवशतं नामांकनपत्राणि वैधानि प्राप्तानि। सप्तम चरणाय जूनस्य प्रथम दिनांके मतदानं भविष्यति। पंजाबे सर्वाधिकानि अष्टनवत्युत्तर पञ्चशतानि नामांकनपत्राणि प्राप्तानि। इतः परं उत्तर प्रदेशस्य त्रयोदश निर्वाचनासनेषु पञ्चनवत्युत्तर पञ्चशतं नामांकनपत्राणि प्राप्तानि। निर्वाचनस्य अस्मिन् अन्तिम चरणे उत्तर प्रदेश पंजाबयोः त्रयोदश त्रयोदश पश्चिमबंगालस्य नव बिहारस्य अष्ट ओडिशायाः षट् हिमाचलस्य चत्वारि झारखण्डस्य त्रीणि केन्द्रशासित प्रदेशस्य चण्डीगढस्य एकं च निर्वाचनासनेष् मतदानं भविष्यति। मतगणना जून मासस्य चतुर्थ दिनांके भविष्यति। निर्वाचनायोगेन भारतीय जनता पार्टी इति दलस्य अध्यक्षः जेपी नड्डा इत्यस्मै कांग्रेस अध्यक्षः मल्लिकार्जुन खड़गे इत्यस्मै च निर्देशः प्रदत्तः यत् तौ दलस्य प्रमुख प्रचारकेभ्यः एकां संचेतना प्रकाशयेत् यत् ते एतादृशं वक्तव्यं न दद्युः येन आदर्श आचार संहितायाः उल्लंघनं स्यात्। द्वाभ्याम् अध्यक्षाभ्याम् प्रेषिते पत्रे आयोगः प्रोक्तवान् यत् किमपि दलं केऽपि प्रत्याशिनः च एतादृशं भाषणं दद्यात् येन समाजे मतभेदं जायेत् साम्प्रदायिकता च प्रवर्धेत। भारतीय ऋतु विज्ञान विभागेन भारतस्य उत्तर भूतल क्षेत्रेष् मध्य भारते च तापतरंगानां कारणेन आगामि पञ्च दिनानि यावत् रेड अलर्ट इति संचेतना प्रसारिता। पंजाब हरियाणा चंडीगढ़ दिल्ली उत्तर प्रदेश राजस्थान मध्य प्रदेश केरल चेत्यादिष् राज्येष् अस्य मासस्य पञ्चविंशति दिनांक पर्यन्तं तीव्र तापतरंगस्य स्थिति निरन्तरं भविष्यति इति भारतीय ऋतु विज्ञान विभागेन पूर्वानुमानं कृतमस्ति। भारतीय ऋतु विज्ञान विभागेन इदमपि अनुमानं प्रकटितं यत् शनिवासरं यावत् अधिकतमं तापमानं चतुश्चत्वारिंशत्तः षड्चत्वारिंशत् डिग्री सेल्सियस पर्यन्तं भविष्यति। ऋतु विज्ञान विभागः प्रोक्तवान् यत् आगामि दिवसत्रयेष् दक्षिण भारते तीव्रवृष्टेः संभावना अस्ति। उत्तर पूर्व अरब सागर मालदीव कन्याकुमारी दक्षिण बंगाल अण्डमान निकोबार द्वीप समूह क्षेत्रेष् दक्षिण पश्चिम मॉनसून कारणेन आगामि दिवसयोः केषुचित् क्षेत्रेष् वर्षायै अनुकूल वातावरणं संजातम्। नौसेना प्रमुखः एडमिरल दिनेश कुमार त्रिपाठी सबलम् अकथयत् यत् भारतस्य तटवर्ती सीम्नः सुरक्षायै भारतीय नौसेनायाः अस्तित्वम् अत्यावश्यकम् अस्ति। नवदिल्ल्यां ह्यः नौसेना मुख्यालये श्री त्रिपाठी आत्मनिर्भरतायै नौसेनायाः प्रतिबद्धतां पुनरुच्चारितवान्। श्री त्रिपाठी वर्यः समुद्रक्षेत्रे समस्या समाधानाय नवाचार प्रौद्योगिकोः सवीकरणं सबलं प्रतिपादयत्। तेन नौसेना मुख्यालयस्य कर्मचारिणां सुरक्षित वातावरणेन नौसेनया कृतैः प्रत्युत्तर कार्याचरणैः च परिचयं कारितम्। नौसेना प्रमुखः सेवायां समर्पण भावस्य व्यावहारिकताम् उद्दिश्य नौसैन्य कर्मिणां प्रशंसाम् अपि अकरोत्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जाल पटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी भारतस्य एकस्य बृहत्तम खाद्य वितरक तन्त्रांशस्य संस्थापकः दीपिंदर गोयलः इत्यस्य प्रशंसाम् अकरोत्। श्री गोयलस्य सार्वजनिक संदेश पटले एकं संदेशं प्रसारयन् प्रधानमन्त्री अवदत् यत् परिश्रमः महतीम् ऊर्ध्वतां प्रति नेतुं शक्नोमि। सः अवदत् यत् श्री गोयलस्य जीवनयात्रा असंख्य युवकान् उद्यमशीलतायाः स्वप्नं साकारं कर्तुं प्रेरयति। सः अवदत् यत् स्टार्टअप संस्थानां समृद्ध्यर्थं अनुकूलं वातावरणं प्रदातुं सर्वकारः प्रतिबद्धः अस्ति। सर्वोच्च न्यायालयेन धनशोधन प्रकरणे नियमित अस्थायी विमोचन याचिका प्रख्यापनम् अधिकृत्य तथ्यानां निगूढने आपत्ति प्रकटितः। अनन्तरं हेमन्त सोरेनः इत्यनेन प्रवर्तन निदेशालयस्य निगडनं विरुध्य प्रख्यापिता याचना प्रत्यावर्तिता। भाजपा दलस्य वरिष्ठ नेता केन्द्रीय मन्त्री च हरदीप सिंह पुरी अद्य प्रोक्तवान् यत् तस्य दलं दिल्ल्यां लोकसभायाः सर्वेष् सप्त निर्वाचनासनेष् विजयम् अधिगमिष्यति। नवदिल्ल्यां संवाददातृभिः सह जाते संवादे सः प्रोक्तवान् यत् भाजपा दलेन कार्याणि कृतानि सन्ति। राजधान्यां विगतेष् दशवर्षेष् चतुर्पञ्चाशत् सहस्रकोटि रूप्यकाणां विकासम् अपि अभवत्। आम आदमी पार्टी इति दलस्य कार्यशैलीं विरुध्य अकथयन् श्रीपुरी प्रोक्तवान् यत् अनेन दलेन दिल्ल्याम् आयुष्मान भारत योजना प्रधानमन्त्री आवास योजना इति द्वयोः क्रियान्वयनं न कृतम्। अपत्ररत दिल्ल्याः मुख्यमन्त्रिणा स्वस्मै विलास वैभव सम्पन्नं भवनं निर्मितम्। पश्चिम बंगालस्य घातल क्षेत्रे अद्य जनसभां संबोधयन् भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता केन्द्रीय मन्त्री च अमित शाहः प्रोक्तवान् यत् पाकिस्तान अधिकृत कश्मीरः भारतेन सह अस्ति, भारतेन सह भविष्यति, भारतं पुनरेतं स्वस्वामित्वम् आनेष्यति च। श्री शाहः प्रोक्तवान् यत् पश्चिम बंगालस्य तृणमूल सर्वकारेण जनाः विकास वंचिताः कृताः सन्ति। सः प्रोक्तवान् यत् संदेशखाली क्षेत्रस्य घटनया महिलानाम् आत्मसम्मानं घातितमस्ति। इतः पूर्वं श्रीशाहेन कांथी क्षेत्रे जनसभा कृतासीत्। सः पुरुलिया बांकुरा लोकसभायाः क्षेत्रयोः द्वे जनसभे संबोधयिष्यत्। उपराष्ट्रपतिनः जगदीप धनकड़स्य अद्य तेहरान नगरे ईरानी अधिकारिभिः स्वागतं कृतम्। धनकरः महोदयः ईरानी राष्ट्रपतिः सैयद इब्राहिम रायसी विदेशमंत्री एच आमीर अब्दुल हाइन इत्यनयोः निधने शोकं प्रकटितुम् आधिकारिक समारोहे भाजं भदिष्यति। आईपीएल क्रिकेट प्रतिस्पर्धायाम् अद्य सायं रॉयल चैलेंजर्स बेंगलुरू दलं राजस्थान रॉयल्स दलं अहमदाबाद नगरस्य नरेन्द्र मोदी स्टेडियम इत्यत्र सम्मुखीकरिष्यति। क्रीडा सायं सार्ध सप्तवादने क्रीडिष्यते।